एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री सुशीला कार्की निगदति शान्तिपूर्णे वातावरणे स्वतन्त्रम् निष्पक्षम् च निर्वाचनम् सम्पादयितुम् सर्वकारेण सम्पूर्णम् ध्यानम् केन्द्रीकृतम् वर्तते। प्रधानमन्त्री कार्की ह्य सिंहप्रासादे नेपाले विद्यमानानाम् विभिन्न कौटनीतिक निकायानाम् प्रमुखान् राजदूतान् च नेपालस्य पश्चात्तन राजनीतिकावस्थायाः विषयम् ज्ञापयन्ती निर्धारित समये लोकतान्त्रिक विदितः निर्वाचिताय सर्वकाराय सत्ता हस्तान्तरणम् करिष्यति इति उदैरयत। तदवसरे प्रधानमन्त्री कार्की जेएनजी युव सन्ततेः आन्दोलनस्य पश्चात् जटिल परिस्थितौ आत्मना सत्तायाम् आरूढास्ति, निर्वाचनाय शान्तिपूर्ण वातावरणस्य निर्माणमेव आत्मना प्रमुख कार्यभारोस्तीति च अन्तर्राष्ट्रिय समुदायानाम् प्रतिनिधिन् असूचयत्। परराष्ट्र मन्त्रालयस्यापि कार्यभारम् निरूढवत्या प्रधानमन्त्रिणा कार्किणा अस्थायी रूपेण विदेशेष् वर्तमानानाम् नेपाली नागरिकाणाम् विश्वव्यापिनम् मताधिकारस्य सिद्धान्तम् सफलीकर्तुम् सर्वकारेण बाह्य मतदानस्य प्रणाल्याः सम्भावनायाः अन्वेषणम् विधीयमानम् अस्तीति च असूचयत्। तदवसरे प्रधानमन्त्री कार्की निर्वाचनम् पारदर्शी विश्वसनीयम् च विधातुम् अन्तर्राष्ट्रिय पर्यवेक्षणेन महत्वपूर्ण भूमिका निर्वक्ष्यते इत्यतः आगामिने निर्वाचनाय सम्पूर्ण मित्र राष्ट्राणाम् नैरन्तर्येण सहयोगस्य सद्भावस्य समर्थनस्य च प्राप्तिर्भविष्यतीति विश्वासम् व्यक्तवती। तदवसरे प्रधानमन्त्री कार्की जेएनजी युव सन्ततेः आन्दोलनस्य क्रमे घटितानाम् हिंसात्मक घटनानाम् सत्य तथ्यानुसन्धानाय न्यायिकानुसन्धानायोगः संघटितोऽस्ति इति ज्ञापयन्ती भ्रष्टाचारस्य विषयेऽपि विश्वसनीयम् निष्पक्षम् च अनुसन्धानम् प्रारप्स्यति इति अबोधयत्। प्रधानमन्त्री कार्की आन्दोलनस्य प्राप्त क्षतीनाम् संरचनानाम् पुनर्निर्माणाय पुनस्थापनायै च सर्वकारेण भौतिक पूर्वाधार पुनर्निर्माण कोषः संस्थापितोऽस्तीति ज्ञापयन्ती तत्र कोषे अन्तर्राष्ट्रिय दातृ निकायेभ्य विकास सहकारीभ्य राष्ट्रेभ्यश्चापि सहयोगो प्राप्स्यति इति विश्वासम् व्यक्तवती। नेकपा एमाले दलेन आगामिनो मार्गशीर्ष मासस्य सप्तविंशात् एकोनविंशम् दिवसम् यावत् पोखरा नगरे दलस्य एकादशम् महाधिवेशनम् आयोजयितुम् निर्णीतम् वर्तते। दलकेन्द्रीय समिते ह्य सम्पन्नेन उपवेशेन महाधिवेशनस्य दिनांकाः निर्धारिताः सन्तीति नेकपा एमाले दलस्य प्रचार विभाग प्रमुख राजेन्द्र गौतमः असूचयत्। उपवेशे नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना महाधिवेशनस्य दिनांकैः सहितं राजनीतिकं प्रतिवेदनं प्रस्तुतम् आसीत्। एवमेव नेकपा एमाले दलस्य केन्द्रीय समितेः उपवेशेन संसद पुनस्थापनायाः विकल्पो नास्तीति निष्कर्षः प्रकाशितोऽस्ति। उपवेशेन संसदः पुनस्थापनायाः कृते वर्तमान संविधाने लोकतन्त्रे च विश्वासकारिभिः पक्षैः सहकार्याय निर्णीतम् अस्तीति प्रचार विभाग प्रमुख गौतमः असूचयत्। एमाले दलीय केन्द्रीय समिते उपवेशेन संसदः पुनस्थापनायै सर्वोच्च न्यायालये निवेदनम् पञ्जीकारितम् अस्तीत्यतः तत्र पक्षे जनपरिचालनम् विधातुमपि निर्णीतम् अस्ति। एवमेव उपवेशेन नेकपा एमाले दलम् निर्वाचनात् न पलाइष्यते, परम् सर्वकारेण एतदर्थम् अनुकूलम् वातावरणम् निर्मातव्यमिति च निर्णीतम् वर्तते इति प्रचार विभाग प्रमुख गौतमः असूचयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशे ह्योपि सदस्यैः विशेष महाधिवेशन प्रवृत्तिषु सामयिक राजनीतिक विषयेषु स्वीय धारणा प्रस्तुतास्ति। सानेपावर्तिनी दल केन्द्रीय कार्यालये गताश्विन मासस्य अष्टाविंशे दिवसे प्रारब्धे केन्द्रीय समितेः उपवेशे भाषमाणैः केन्द्रीय सदस्यैः यथासमयम् महाधिवेशनस्य समायोजनत्वेन पूर्वकार्याणि प्रारब्धम् कार्यवाहकः सभापतिः अनुरुद्धो वर्तते। उपवेश अद्य दिवा एकवादने पुनर्वसति। गृहमन्त्री ओम प्रकाश आर्याल निगदति आगामिन फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधि सभाया निर्वाचनस्य कृते प्रहरीबलं स्वत साधन सम्पन्नं मनोबलस्य रूपेण समृद्धं शक्तिशाली च विधातव्यम्। सप्ततितमस्य प्रहरी दिवसस्य अवसरे प्रहरी प्रधान कार्यालये पूर्वे जिहो आयोजिते कार्यक्रमे गृहमन्त्री आर्याल समाजस्य प्रत्येकं घटनायां प्रहरिणा अग्रपंक्तौ स्थित्वा सुरक्षा प्रदीयमानास्ति इति चर्चयन् आगामी निर्वाचनं सफलतापूर्वकं सम्पादयितुमपि प्रहरिणः महत्वपूर्ण भूमिका भविष्यति इति प्रावोचत्। नेपाल प्रहरिणी स्रोत साधनानाम् अभावे सति निर्वाचनस्य असम्भावना भविष्यति इति चर्चयन् गृहमन्त्री आर्याल विषयोऽयं सर्वकारेण गभीरेण विचारितोऽस्ति इति उदैरयत्। जीएनजी युवा समूहस्य प्रदर्शनेन सहैव जल विप्लव भूस्खलनादिभ्य प्राप्त क्षतिषु स्थानेषु प्रहरिणा निर्व्यूढां भूमिकां प्रशंसन् गृहमन्त्री आर्याल आगामी दिनेषु प्रहरिणं प्रविधि मैत्रिणं विधाय कार्यकरणस्य आवश्यकतां प्रादर्शयत्। संचार सूचना प्रविधि मन्त्री जगदीश खरेल कथयति राज्यस्य संयन्त्राणां माध्यमेन सर्वकारः विधिसम्मत रूपेण अग्रे वर्धते। मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने जेएनजी युवा समूहस्य नाम्नि नेपाल सर्वकारस्य कतिसूचित निकायेषु प्राप्य पदाधिकारीभ्य कर्मचारीभ्यश्च भयप्रदानस्य क्रियाकलापः जायमानोऽस्ति इति सन्दर्भे संचारकर्मिणां जिज्ञासायां सर्वकारस्य प्रवक्ता च संचार मन्त्री खरेल सुशासनं संस्थाप्य विदेहे शासनं सर्वकारेण संस्थाप्यते इति प्रतिबद्धतां व्यक्तवान्। श्री खरेल सर्वकारेण सुशासनस्य निर्वाचनस्य च मुख्य विषयं पूरयितुं सर्वान् सहैव नीत्वा सर्वकारः अग्रे वर्धते इति अवोचत्। परह्यः उपविष्टस्य मन्त्रिपरिषदा उपवेशस्य निर्णयान् सार्वजनिकर्तुम् आयोजिते पत्रकार सम्मेलने संचार मन्त्री खरेल विद्युत उत्पादनेन प्रसारणेन वितरणेन च सम्बद्धानाम् आयोजनानां राष्ट्रिय प्राथमिकता प्राप्ता योजनानां रूपेण निर्धारणाय निर्णीतमस्ति इति च असूचयत्। नेपाली सेनया विश्व परिवेशे दृष्टस्य आन्दोलनस्य तुलनायां नेपालस्य जेएनजी युव सन्ततेः आन्दोलनम् अनुमानात् तीव्रं व्यापकं चासीदिति निष्कर्ष प्रकाशितोऽस्ति। सैनिक मुख्यालये ह्य आयोजिते पत्रकार सम्मेलने जेएनजी युव सन्ततेः आन्दोलनात् सुरक्षायाः समस्या वर्धिष्यते इति आकलनं विहितं सदपि मात्रा तीव्रता च अनुमानात् विपुले आस्तामिति सूचितम् आसीत्। सेनायाः युद्ध कार्य महानिर्देशक पवनजङ थापा जेएनजी आन्दोलनं विश्वव्यापी तरंगस्य रूपेण दृष्टं सदपि अत्र देशे सहसा व्यापकं चासीदित्यतः तात्कालिक परिस्थितौ शान्ति सुरक्षायै सुरक्षायाः वस्तुपरक विश्लेषणं विधाय आवश्यकतायाः सिद्धान्तस्य आधारेण सेना अग्रे वर्धिता आसीत् अस्तीति च समस्पष्टयत्। सर्वोच्च न्यायालयेन डा सीके रावत इत्यस्य नेतृत्वस्य जनमतदलं त्रोटयित्वा जनस्वराजदलस्य पंजीकरणस्य निर्वाचन आयोगस्य निर्णयं तत्कालं न क्रियान्वेतुम् अल्पकालिक अन्तरिमादेश प्रदत्तोऽस्ति। सर्वोच्च न्यायालयस्य न्यायाधीशस्य तिलप्रसाद श्रेष्ठस्य एकल न्यायपीठेन ह्य जनमतदलस्य अध्यक्षस्य डा रावत इत्यस्य आदेशाभियाचन निवेदनस्य श्रवणं विधाय अल्पकालिक अन्तरिम एवं आदेश प्रदत्तोऽस्ति। नेपालेन सामुआदेशं पराजित्य अन्तर्राष्ट्रिय क्रिकेट क्रीडा परिषद अन्तर्गताया पुरूषस्य टीविंशते क्रिकेट क्रीडा विधाय विश्वकप इति स्पर्धायां एशिया पूर्व एशिया क्षेत्रत यनात्मिकायाः प्रतियोगितायाः उपाधिः अधिगतो वर्तते इति समाचाराः।